अच्छापद तवसं गीर्भिराभिस्तुहि पर्जन्यन्नपसा विभास कनिक्रदद्वृषभो जीरदा नोरेतो दधात्योषधीषु गर्भम् विवृक्षान् हन्त्युत हन्ति रक्षसो विश्वम् विभाज भुवनम् महावधात् उदाना गा ईषते वृष्ण्यापतो यत्पर्जन्यस्तनयन्हन्ति दुष्कृताः रथे वकषजाश्वाङ्क्षिपन्नाभिर्दूतान् कृणुते वर्ष्याः दूरात् सिंहस्य स्तनधा उदीरते यत्पर्जन्यः कृणुते वर्ष्यान्नभः प्रवाता बान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वाहा इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीम् रेतसापते यस्यौव्रते पृथिवीनन्नमेति यस्यौव्रते शफभज्जर्भुरेति यस्यौव्रत ओषधेर्विश्वरोपाः स नः पर्जन्यमहि शर्म यच्छ दिवो नो वृष्टिम् मरुतो ररेध्वम् प्रबिन्वत वृष्णो अश्वस्य धाराः अर्वाङ्गेतेन स्तन यत्नने ह्यपो निषिञ्चन्न सुरः पितानाः अभिक्रन्दस्तन जगर्भमाधा उदन्वता परिदीजारथेन धृतिम् सुकर्षविषितञ्जञ्चम् समाभवन्तोद्वतो निपादाः महान्तम् कोशमुदचानिषिञ्चस्यन्दन्ताङ्कुल्याविषिताः पुरस्तात् घृते नद्या वा पृथिवीव्यन्धिसुप्रपाणम् भवत्मघ्नाभ्याः यत्पर्जन्यकनिक्रदत्स्तनजन्हंसि दुष्कृताः प्रतीदम् विश्वम् मोदते यत्किञ्च पृथिव्यामधे अपरशेर्वर्षमुदुषो गृभाया कर्धन् वान्यत्ये तवा ओ अजे जन ओषधेर्भोजनायकमुत प्रजाभ्यो विदो मनीषाम्